नमस्सर्वेभ्यः। अद्य छन्दोवर्गस्य दशमः पाठः। अद्य वयं वंशस्थम् इत्यस्य वृत्तस्य लक्षणम् उदाहरणानि च पश्यामः। वंशस्थवृत्तस्य लक्षणं भवति जतौ तु वंशस्थमुदीरितं जरौ। पुनः वदामि, जतौ तु वंशस्थमुदीरितं जरौ। अत्र प्रस्तारं लिखामः, ज इति लघुः, तौ इति गुरुः, तु इति लघुः, वं ह्रस्वः अनुस्वारः अस्ति अतः गुरुः, श ह्रस्वः अग्रे संयोगः अस्ति अतः गुरुः, स्थ लघुः, मु लघुः, दी गुरुः, रि लघुः, तं गुरुः, ज लघुः, रौ गुरुः। अत्र गणविभागं कुर्मः चेत् चत्वारः गणाः अत्र दृश्यन्ते, त्रीणि 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 त्रीणि, एवं च वंशस्थवृत्ते प्रतिपादं द्वादश अक्षराणि भवन्ति। गणाः के सन्ति? मध्यगुरुः, य र त इति यरता यान्ति लाघवं, भजसा गौरवं यान्ति। तत्र मध्यगुरुः जगणः। अन्त्यलघुः, अन्त्यलघुः तगणः। पुनः मध्यगुरुः जगणः। मध्यलघुः, मध्यलघुः अस्ति र, रगणः। एवं च ज त ज र इति चत्वारः गणाः अस्मिन् वृत्ते सन्ति। तदेव उच्यते लक्षणे जतौ, जगण तगणौ। जतौ तु वंशस्थम् उदीरितम्, उदीरितम् उक्तम्। जतौ जरौ, जरौ जगण रगणौ। अतः ज त ज र इति चत्वारः गणाः यस्मिन् वृत्ते भवन्ति तद्वृत्तं वंशस्थम् इति कथ्यते। वंशस्थवृत्तस्य एकम् उदाहरणं पश्यामः। नमामि नारायणपादपङ्कजं, करोमि नारायणपूजनं सदा, वदामि नारायणनामनिर्मलं, स्मरामि नारायणतत्त्वमव्ययम्। अत्र प्रथमपादे पश्यन्तु, न इति लघुः, मा गुरुः, नि लघुः, ना रा य न पा द प ह्रस्वः अग्रे संयोगः अतः गुरुः, पङ्क जम्। नमामि नारायण पाद पङ्कजम्। गणविभागं कुर्मः चेत् मध्यगुरुः जगणः, अन्त्यलघुः तगणः, मध्यगुरुः जगणः, मध्यलघुः रगणः। ज त ज र इति वंशस्थस्य लक्षणं समन्वेति। अन्यदेकम् उदाहरणं पश्यामः। कालिदासस्य अभिज्ञानशाकुन्तलस्य प्रसिद्धः श्लोकः एषः, असंशयं क्षत्रपरिग्रहक्षमा, यदार्यमस्यामभिलाषि मे मनः, सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः। अ ह्रस्वः अतः लघुः भवति। अ संशयं क्ष अग्रे संयोगः अस्ति, क्षत्र प रि तत्रापि अग्रे संयोगः अस्ति इत्यतः गुरुः ग्र ह अग्रे संयोगः क्ष मा असंशयं क्षत्र परिग्रह क्षमा ज त ज र जतौ तु वंशस्थमुदीरितं जरौ अद्य वंशस्थवृत्तस्य लक्षणं ज्ञातवन्तः वंशस्थे प्रतिपादं द्वादश अक्षराणि भवन्ति ज त ज र इति चत्वारः गणाः जतौ तु वंशस्थमुदीरितं जरौ इति वृत्तस्य लक्षणम् अभ्यासपत्रे दत्तासु पङ्क्तिषु प्रस्तारं विलिख्य वंशस्थवृत्तं कुत्र कुत्र अस्ति इति पश्यन्तु।